ॐ यो वै तां ब्रह्मणो वेद अमृतेनावृतां पुरीं तस्मै ब्रह्म च ब्रह्म च आयुः कीर्तिं प्रजां दधुः भागधेयेनैवैनं प्रणयति ब्राह्मणारुषेय उद्धरेत् ब्राह्मणो वै सर्वा देवताः सतमानं भवति सदा हि पुरुषस्येन्द्रियायुष्येवेन्द्रिये प्रतिष्ठति सर्वं जयमस्तु अखण्डायुरारोग्य ऐश्वर्याभिवृद्धिरस्तु धनकनकवस्तुवाहनप्राप्तिरस्तु अखण्डविद्याप्राप्तिरस्तु तथास्तु।